जीवन मे सुतन एकं समयं भगवा सावत्यं विहरति जेतवनी अनाथ पिंडिकस्स आरामे अथ को अन्यतरा देवता अभिकंताय रत्या अभिकंत वन्ना केवल कप्पन जेतवनं मोभासित्वा येन भगवा तेनुपसंकमि उपसंकमित्वा भगवन्तं अभिवादित्वा एकमन्तं अट्ठासि एकमन्तं तिताकोसा देवता भगवन्तं गाथाय अज्जभासि बहुदेवा मनुस्सा च मंगलानि अचिन्तयुं आकंकमाना सुत्थानं ब्रूहि मंगलमुत्तमं असेवना च बालानं पंडितानं च सेवना पूजा च पूजनीयानं एतं मंगलमुत्तमं पतिरूपदेशवासो च पुब्बे च कत पुण्यता अत्र सम्मा पनिधि च एतं मंगलमुत्तमं बाहु सच्चं च सिप्पं च विनयो च सुशिक्षितो सुभाषिता च यावाचा एतं मंगलमुत्तमं माता पितुः पठानं पुत्रदारस्य संगः अनाकुला च कम्मन्ता एतं मंगलमुत्तमं दानं च धर्मचर्या च ज्ञातकानं च संगः अनवज्जानि कम्मानि एतं मंगलमुत्तमं आरति विरति पापा मज्जपाना च संयमो अपमादो च धम्मेषु एतं मंगलमुत्तमं गारवो च निवातो च संतुष्टि च कथन्युता कालेन धम्म सवनं एतं मंगलमुत्तमं खन्ति च सोवचस्सता समनानं च दस्सनं कालेन धम्म साकच्छा एतं मंगलमुत्तमं तपो च ब्रह्मचर्यं च अरियसच्चान दस्सनं निब्बान सच्चिकिरिया च एतं मंगलमुत्तमं हुटस्स लोक धम्मेहि चित्तं यस्स न कंपति अशोकं विरजं खेमं एतं मंगलमुत्तमं एतादृशानि कत्वान सर्वत्रमपराजिता सर्वत्र स्वस्तिं गच्छन्ति तं तेषां मंगलमुत्तमन्ति एतेन सच्चेन सुवत्ति होतु।